मित्रोजनान्यादयति ब्रुभागो मित्रोदाधार पृथिवीमुदद्याम् मित्रः कृष्टेरणेमिषाभिजष्टे मित्राय हव्यम् कृतवज्जुहोत प्रथमित्रमर्तो अस्त्वप्रजस्वान्यस्त आदित्यशिक्षतिव्रतेन नहन्यतेन जीयते त्वोतो नैरमम्भो अश्नात्यन्ते तो न दूरात् मदन्तोमितज्ञ भोवरे मह्ना पृथिव्याः आदित्यस्य व्रतमो पक्षियङ्गो वयम् मित्रस्य सुमतौ स्याः अयम् मित्रो नामस्य सुदेवो राजा सुक्षत्रो अजनिष्टभेदाः अस्य वयम् सुमतौ यज्ञ यस्यापि भद्रे सौ मनसे स्याम महादित्यो नमासो वसद्यो जातयज्ञनो गृणते सुसेवाः तस्माजेतत्पन्यतमायजुष्टमग्नो मित्राय हविराजु होत मित्रस्य दर्शनीहृतो वो देवस्य सानसि युम्नम् चित्रस्रावस्तमम् अभियो वाहिनादिवम् मित्र बभूव सप्रदाः अविश्वरोऽभिपृथिवी मित्राय पञ्चाजेऽपि वेदना अभिष्टे सवसे देवान् विश्वान् विभर्ति मित्र देवेष्वायुषुजनाय वृक्तपरिषे इडयिष्टव्रता अकः